राम गीता जी का पाठ छठा अध्याय श्लोक 21 से 30 तक। राम
वसुदेव सुसंदेव पंचजानोरमार्जनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् सुखमात्यान्तिकं यत्तत् बुद्धि ग्राह्यमतीन्द्रियं वेत्ति यत्र न चैवायं तिषस्तरति तत्त्वतः यं लब्ध्वा च परं लाभं मान्यते नाधिकं तत् यस्मिन् स्थितो न दुःखेन गुरुणापि विशाल्यते तं विद्या दुःख संयोग योगं योग साङ्गितं समेष्टजेन योक्तव्यो योगो निर्विन्नते त्वसा सङ्कल्प प्रभवान् कामास्त्यक्त्वा सर्वानशेषतः मनसैवेन्द्रियग्राम्यसमन्ततः शनैः शनैरुपरमे बुद्ध्याधिति गृहीतया आत्मसंस्थमनः कृत्वा न किञ्चिदपि चिन्तये यतो यतो निस्तरति मनश्चञ्चलमस्थिरम् ततस्ततो नियमैक आत्मन्येव वसन्नये प्रशान्तमनसंहीनम् योगिनम् सुखमोत्तमम् उपैति शान्तरजसम् ब्रह्मभूतमकर्मसम् यो जान्येवं सदात्मानम् योगी विगतकर्मसः सुखेन ब्रह्म संस्पर्श अत्यन्तं सुखमश्नुते सर्वभूतस्त्वमात्मानं सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनम् यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्याहं न प्रणश्यामि स च मे न प्रणश्यति वसुदेव सुसंदेवं पंचजानोरमार्जनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम्
हरे शरणम् 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 Hare Sharanam, 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 Hare Sharanam.